इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधिः झाः। आदौ मुख्याः वार्ताः। रामनवमी पर्वणः शुभावसरे अद्य प्रधानमन्त्री श्रीनरेन्द्रमोदी तमिलनाडु राज्यस्य नवीन पम्बन रेलसेतोः उद्घाटनं विहितवान्। प्रधानमन्त्रिणः नरेन्द्रमोदिनः श्रीलंकादेशस्य त्रिदिवसीय यात्रा सम्पन्ना। प्रधानमन्त्रिणः श्रीमोदिनः इयं श्रीलंकादेशस्य राजकीय यात्रा अस्मै द्वीपाय अस्याभ्यन्तरे च सम्पर्क सौविध्याय एका कीर्तिमान संभृता यात्रा आसीत्। अद्य तावत् अशेषे हि देशे सहर्षं सश्रद्धं च रामनवमी समाचर्यमाणास्ति। सर्वत्रैव तावत् श्रद्धातिरेकः अनुभूयमानः। संयुक्त राज्य अमेरिका देशस्य सीमा शुल्क प्रतिनिधयः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य एकपक्षीयं 10% शुल्कं बहूनां देशानां आयातानाम् उपरि संग्रहीतुं स्वकार्यम् आरभन्त। अपि च क्रीडा वार्तासु, आईपीएल टी20 क्रिकेट प्रतिस्पर्धायां सनराइजर्स हैदराबाद दलं गुजरात टाइटन्स दलं सम्मुखी करिष्यति। अथ वार्ताः विशदीकृत्य। रामनवमी पर्वणः शुभावसरे अद्य प्रधानमन्त्री श्रीनरेन्द्रमोदी तमिलनाडु राज्यस्य नवीन पम्बन रेलसेतोः उद्घाटनं विहितवान्। प्रधानमन्त्रिणा तमिलनाडौ 360,000,000,000 रूप्यकाणां विभिन्नानां विकासात्मक रेल मार्ग परियोजनानां आधारशिला च संस्थाप्य राष्ट्राय समर्पिता। तेनोदीरितं यत् तमिलनाडोः विकासः राष्ट्रस्य विकासे योगदानमस्ति। परियोजनेयं रामनवम्याम् उपहारवद् वर्तते इति असौ उल्लिखितवान्। सममेव संगमसाहित्ये भगवतः रामस्य उल्लेखम् असौ अकरोत्। तेनोक्तं यत् अस्मिन् दिवसे प्राचीन रामेश्वरं मन्दिरे पूजार्चना अपि च परियोजनायाः समर्पणं च अलौकिक क्षणवत् अस्ति।
I feel blessed that I could pray at the Ramana Swami temple today. On this special day, I got the opportunity to hand over development project worth 8,300 crore rupees. These rail and road projects will boost connectivity in Tamil Nadu.
अयं रेलसेतुः वास्तुकलायाः एकः अद्भुतः प्रतिदर्शो विद्यते, यो हि देशस्य प्रथमः वर्टिकल लिफ्ट इति ऊर्ध्वाधरोन्नयन सागरीयसेतुः अस्ति। असौ तावत् अस्य अद्वितीयकार्यस्य कृते निर्माणकर्तृभ्यः च धन्यवाद ज्ञापनं विहितवान्। श्रीमोदी उक्तवान् यत् अनया परियोजनया व्यापारः पर्यटनं च वर्धिष्यते अपि च जनेभ्यः वृत्त्यवसराः लप्स्यन्ते।
This bridge is India's first vertical lift railway sea bridge. Big ships will be able to sail under it. Trains will also be able to travel faster on it. I just flag off a new train service and also a ship.
प्रधानमन्त्रिणः नरेन्द्रमोदिनः श्रीलंकादेशस्य त्रिदिवसीय यात्रा सम्पन्ना। प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः इयं श्रीलंकादेशस्य राजकीय यात्रा अस्मै द्वीपाय अस्याभ्यन्तरे च सम्पर्क सौविध्याय एका कीर्तिमान संभृता यात्रा आसीत्। प्रधानमन्त्री नरेन्द्रमोदी श्रीलंकादेशीयः राष्ट्रपतिः अनुरा कुमरा दिसान्नायके इत्यसौ च अद्य श्रीलंकायाः अनुराधापुरायां महत्वपूर्णानां रेलवे परियोजनानां उद्घाटनम् अकुरुताम्। एकस्मिन् सामाजिकान्तर्जालीय पटले श्रीमोदी समुदीरितवान् यत् इयं यात्रा द्वयोर्देशयोर्मध्ये घनिष्ठ सांस्कृतिकम् आध्यात्मिकम् सभ्यतागतम् च सम्बन्धानां पुष्टिः वर्तते। श्रीमोदी महोदयस्य श्री दिसानायके इत्यस्य साकं द्विपक्षीया वार्ता अपि सञ्जाता। अवसरेऽस्मिन् भारतीय मत्स्य पालकानां मुक्ति विषये अपि द्वौ नेतारौ विमर्शम् अकुरुताम्। विदेश सचिव विक्रम मिस्री अवोचत यत् वार्तायाः अनन्तरं श्रीलंका प्रशासनेन एकादश भारतीय मत्स्य पालकानां मुक्तिः अपि कृता। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अद्य अशेषे हि देशे सहर्षं सश्रद्धं च रामनवमी समाचर्यमाणा अस्ति। सर्वत्रैव तावत् श्रद्धातिरेकः अनुभूयमानः। अवसरेऽस्मिन् राष्ट्रपतिः पदासीना द्रौपदी मुर्मुः सर्वेभ्यः देशवासीभ्यः शुभकामनाः ख्यापितवती। अथ देशवासिनः श्रीरामदर्शनत्वं भजेयुः इत्यपि तत्पक्षतः विशेषाग्रहः जातः। रामनवमी पर्वणि रामजन्मभूमिस्थले अयोध्यामन्दिरे विशेषानुष्ठानं च विधीयते। अयोध्यायां सर्वत्रैव प्रसन्नता दरीदृश्यते। जय श्रीराम इति उद्घोषः च मन्दिरं परितः श्रूयते। अद्य मध्याह्ने 12 वादने सूर्यकिरणैः रामस्य ललाटे तिलकं सुशोभ्यमासीत्। अद्वितीयः दृश्योऽयं प्रायः निमेषचतुष्टयं यावत् आसीत्। अयोध्यायां 2 लक्ष दीपप्रज्वालनं च भविष्यति। उत्सवोऽयं भगवतः विष्णोः सप्तमावतारस्य रामस्यावतरणस्य प्रतीकमस्ति। रामनवमी चैत्रमासस्य 9वें दिनाङ्के आचर्यते। प्रधानमन्त्रिणा नरेन्द्रमोदिना रामनवमी पर्वणावसरे प्रजाभ्यः शुभकामनाः प्रकटिताः। सामाजिकान्तर्जालीयपटले सः प्रार्थयत् यत् भगवतः श्रीरामस्य आशीर्वादः अस्माकं सर्वेषाम् उपरि भवेदिति। संयुक्तराज्यामेरिकादेशस्य सीमाशुल्कप्रतिनिधयः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य एकपक्षीयं 10% शुल्कं बहूनां देशानाम् आयातानामुपरि संग्रहीतुं स्वकार्यम् आरभन्त। अमेरिकीय आयातकैः प्रदीयमानं प्रारम्भिकं 10% आधारभूतशुल्कं शनिवासरस्य मध्यरात्रितः अमेरिकीय नौकाश्रयेषु विमानस्थानकेषु सीमाशुल्कभण्डारेषु च प्रवृत्तम् अभवत्। ऑस्ट्रेलिया ब्रिटेन कोलम्बिया अर्जेंटीना मिस्र सऊदी अरब चेत्येतेषु देशेषु 10% शुल्कस्य प्रथमः प्रकोपभागः अभवत्। शनिवासरे मध्यरात्रौ जलस्य उपरि कार्गोस् कृते अनुग्रह अवधिः नास्ति इति प्रेषकान् प्रति US कस्टम्स् एण्ड बॉर्डर प्रोटेक्शन इति वार्ता सूचयति। अत्रांतरे राष्ट्रपतेः डोनाल्ड ट्रम्पस्य आर्थिकनीतिनां संघीयं शासनं अल्पं कर्तुं योजनां च विरुध्य ह्यः 50 अमेरिकीय राज्येषु वैश्विकरूपेण च लक्षाः जनाः विरोधम् अकुर्वन्। राजधानीषु संघीयभवनेषु नगरसभागृहेषु च 14,000 अधिकाः हैंड ऑफ इति सभाः आयोजिताः, यत्र वाशिंगटन नगरस्य नेशनल मॉल डीसी इत्यत्र सर्वाधिकं मतदानं जातम्। विदेशेषु अपि प्रदर्शनानि अभवन्। बर्लिन नगरे अपि यत्र विरोधिनः विदेशेषु अमेरिकीयजनान् अस्मिन् आन्दोलने सम्मेलयितुं प्रार्थयन्ति स्म। आयोजकाः सर्वकारस्य कोट्यधिपति अधिग्रहणं सामाजिक कार्यक्रमेषु क्षयः अप्रवासिनां तथा सीमान्तवर्गीयेभ्यः समुदायेभ्यः अपि उपरि आक्रमणानि च समाप्तुं याचनाम् अकुर्वन्। व्हाइट हाउस इत्ययम् अवदत् यत् ट्रम्पः योग्य अमेरिकिनां कृते सामाजिक सुरक्षायाः मेडिकेयर इत्यस्य मेडिकेड इत्यस्य च रक्षणाय प्रतिबद्धः अस्ति। तदा च डेमोक्रेट जनाः अघोषित प्रवासिनां कृते लाभाः विस्तारयित्वा तान् कार्यक्रमान् संकटाय कल्पयन्ति इति आरोपं कृतवन्तः। आईपीएल T20 क्रिकेट प्रतिस्पर्धायां सनराइजर्स हैदराबाद दलं गुजरात टाइटन्स दलं सम्मुखी करिष्यति। इयं स्पर्धा तावत् सायं 7:30 वादने भविष्यति इति वार्ताः।